ऋषयोचुः अग्राह्यं शिवनैवेद्यमिति पूर्वं श्रुतं वचः रुहितन्निर्णयं बिल्व महात्म्यमपि सन्मुने सूत उवाच शृणुध्वं मुनयः सर्वे सावधानतयाधुना सर्वं वदामि सम्प्रीत्या धन्यायुजं शिवव्रताः शिवभक्तिशुद्धसद्वृतीर्दृढनिश्चयः भक्षे यच्छिवनैवेद्यं तदेदग्राह्यभावनां दृष्ट्वापि शिवनैवेद्यं यान्ति पापानि दूरता भुङ्क्ते तु शिवनैवेद्यं पुण्यान्यायान्ति कोटिशः अलं यागसहस्रेण अलं यागाहृदैरपि भक्षिते शिवनैवेद्ये शिवसायुज्यमाप्नुया यद्गृहे शिवनैवेद्यं प्रचारोऽपि प्रजायते तद्गृहं पावनं सर्वमन्यपावनकारणम् आगतं शिवनैवेद्यं गृहीत्वा शिरसा मुदा भक्षणीयं प्रयत्नेन शिवस्मरणपूर्वकम् आगतं शिवनैवेद्यम् अन्यदा ग्राह्यमित्यपि बिलवे पापसम्बन्धो भवत्येव हि मानवः गयस्य शिवनैवेद्यं ग्रहणेच्छा प्रजायते स्वपापिश्च गरिष्ठाश्च नरकं यात्यपि ध्रुवं हृदये चन्द्रकान्ते च स्वर्णरूप्यादि निर्मिते शिवदीक्षामता भक्तेनेदं भक्ष्यमितीर्यते शिवदीक्षान्विनो भक्तो महाप्रसादसंजकं सर्वेषामपि लिङ्गानां नैवेद्यं भक्षयेच्छुभम् अन्यदीक्षायुधानां शिवभक्तिरतात्मनां शृणध्वं निर्णयं प्रीत्या शिवनैवेद्यभक्षणे शालग्रामोद्भवे लिङ्गे रसलिङ्गे दधाद्विजा पाषाणे राजते स्वर्णे सुरसिद्धप्रतिष्ठिते काश्मीरे स्फाटिके रत्ने ज्योतिर्लिङ्गेषु सर्वशः चान्द्रायनसमं प्रोक्तं शम्भोर्नैवेद्यभक्षणं ब्रह्माशिषु भूत्वा निर्माल्यं यस्तु धारयेत् भक्षयित्वा धृतं तस्य सर्वपापं प्रणश्यति चण्डाधिकारो यत्रास्ति तद्भोक्तव्यं न मानवैः चण्डाधिकारो नो यत्र भोक्तव्यं तच्च भक्तितः पाणलिङ्गे च लौहे च सिद्धलिङ्गे स्वयंभुवे प्रतिमासु च सर्वासु चण्डोऽधिकृतो भवेत् स्नापयित्वा विधानेन योनिङ्गस्नपनोदकं त्रिविधं पाप तस्येहाशु विनश्यति अग्राह्यश्व नैवेद्यं वत्रं पुष्पं फलं जलं शालग्रामशिलासङ्गात् सर्वं व्यापि पवित्रतां लिङ्गोपरिचयद्रव्यं तद्ग्राह्यं मुनीश्वराः सुपवित्रं च दज्जेलं यल्लिङ्गस्पर्शवायतः नैवेद्यनिर्णयः प्रोक्त्व इत्थं वो निषद्गमाः शृणध्वं बिल्व माहात्म्यं सावधानतयादरात् महादेवस्वरूपोऽयं बिल्वो देवैरपि स्तुतः यथा गच्छन्ति महिमा ज्ञायते कथं पुण्यतीर्थानि यावन्ति लोकेषु प्रतितान्यपि तानि सर्वाणि तीर्थानि बिल्वमूले वसन्ति बिल्वमूले महादेवं लिङ्गरूपिणमव्ययं यः पूजयति पुण्यात्मा स शिवं प्राप्नुयाध्रुवं बिल्वमूले जलैर्यस्तु मूर्धानमभिषिञ्चति स सर्वतीर्थस्नातः स्यात् स एव भुवि पावना एतस्य बिल्वमूलस्य तनवानुमुत्तमं जलाकुलं महादेवो दृष्ट्वा दुष्टो भवत्यलं पूजयेत् बिल्वमूलं यो गन्धपुष्पादिभिर्नरः शिवलोकमवाप्नोति सन्ततिर्वर्धते सुखं बिल्वमूले दीपमाला यः कल्पयति सादरं स तत्त्वज्ञानसम्पन्नो महेशानर्गतो भवेत् बिल्वशाखां समादाय हस्तेन नोपल्लवं गृहीत्वा पूजयेत् बिल्वं स च पापैः प्रमुच्यते बिल्वमूले शिवरतं भोजयेत्यस्तु भक्तितः एकं वा कोटिगुणितं तस्य पुण्यं प्रजायते बिल्वमूले क्षीरयुक्तम् अन्नमाद्येन संयुतं यो दद्याच्छिवभक्ताय सरित्रो न जायते साङ्गोपाङ्गमिति प्रोक्तं शिवलिङ्गप्रपूजनं प्रवृत्तानां निवृत्तानां वेदतो द्विधं द्विजाः प्रवृत्तानां पीठपूजा सर्वाभीष्टप्रदा भुवि पात्रेणैव प्रवृत्तस्तु सर्वपूजा समाचरेत् नैवेद्योऽभिषेकान्ते शाल्यन्येन समाचरेत् पूजान्ते स्थापये लिङ्गं पुष्पे शुद्धे पृथक् गृहे करपूजानिवृत्तानां स्वभोज्यं तु निवेदयेत् निवृत्तानां परं सूक्ष्मं लिङ्गमेव विशिष्यते विभूत्यभ्यर्चनं कुर्यात् विभूतिञ्च निवेदयेत् पूजां कृत्वा तथा लिङ्गं शिरसा धारयेत् सदा ॐ।